नमस्सर्वेभ्यः। अद्य शिक्षावर्गस्य चतुर्विंशः पाठः, नवम्बर् मासस्य पञ्चविंशः दिनाङ्कः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। शत्रु प्रत्ययान्तेषु पुल्लिङ्गे, नपुंसकलिङ्गे तथा स्त्रीलिङ्गे रूपाणि कथं भवन्ति इति ज्ञातवन्तः। तत्र अभ्यासकालेपि आदौ पुल्लिङ्गरूपाणाम् अभ्यासः सम्यक् कर्तव्यः, यतोहि तदाश्रित्यैव नपुंसकलिङ्गरूपाणि स्त्रीलिङ्गरूपाणि च ज्ञातुं शक्यन्ते। लट्लकारस्य बहुवचनरूपम् आश्रित्य पुल्लिङ्गरूपं कथं भवति इति आदौ ज्ञातव्यम्। तस्य अभ्यासः यदा सम्यक् भवति तदनन्तरं नपुंसकलिङ्गस्य रूपाणि, तत्र केवलं प्रथमा द्वितीया विभक्त्योः भेदः भवति। ततः परं स्त्रीलिङ्गरूपाणि, तत्र पुल्लिङ्गवदेव भवन्ति किन्तु नकारः भवति वा न वा इति एकत्रैव सन्देहः। सः सन्देहः लट्लकारस्य एकवचनरूपं दृष्ट्वा परिहर्तुं शक्यते। यदि एकवचनरूपे अति ति इत्यतः प्राक् ह्रस्वकारः अस्ति तर्हि नकारः भवति, अन्यथा न भवति इति नियमः। भिन्नासु विभक्तिषु एतेषां रूपाणां प्रयोगस्य अभ्यासः अपि कर्तव्यः। काव्यांशेषु सुभाषितत्रयं ह्यः अधीतवन्तः। अद्य व्याकरणांशे नूतनतया किमपि न पठामः। शत्रुप्रत्ययान्तानाम् अभ्यासं सम्यक् कुर्वन्तु, गृहकार्यार्थमपि अभ्यासाः दीयन्ते, तेषाम् अभ्यासं कृत्वा अग्रे शानच्च प्रत्ययस्य रूपाणि अग्रिमसप्ताहे तेषाम् अध्ययनं कुर्मः। अद्य काव्यकथायां द्वितीयस्य काव्यस्य कथा, तत्र शिक्षा पठ्यांशेषु काव्यद्वयस्य कथा अध्येतव्या, परीक्षादृष्ट्यापि एताः कथाः प्रमुखाः अथवा एतद् कथाद्वयमपि प्रमुखम्, यतोहि इतः एकाङ्कप्रश्नाः भवन्ति। ससन्दर्भं लिखत इति प्रश्नाः भवन्ति, इतः एकं वाक्यं दत्त्वा केन, कस्मै उक्तं, कस्मिन् सन्दर्भे उक्तम् इति लेखनीयं भवति। प्रबन्धः अपि भवति, यथा श्रीकृष्णस्य प्रयाणं वर्णयत अथवा श्रीकृष्णस्य उद्धवबलरामाभ्यां मन्त्रालोचनं वर्णयत, तद्विषये नवदश वाक्यानि लेखनीयानि इत्यपि प्रश्नाः इमं भागम् आश्रित्य एव भवन्ति। तत्र पञ्च महाकाव्यानि भवन्ति, महाकाव्यानि इति अङ्गीकृतानि, महाकाव्यानि तु बहूनि सन्ति संस्कृत साहित्ये, तत्र पञ्चकाव्यानि महाकाव्यानि इति अङ्गीक्रियन्ते। कालिदासस्य रघुवंशं, कुमारसम्भवम् इति काव्यद्वयं, भारवेः किरातार्जुनीयं, माघस्य शिशुपालवधं तथा श्रीहर्षस्य नैषधीयचरितम् इति एतानि काव्यानि महाकाव्यानि भवन्ति। तत्र माघस्य शिशुपालवधविषये वयं ज्ञातवन्तः। अद्य किरातार्जुनीयम् इति महाकाव्यम् आश्रित्य किञ्चित् पठामः। अष्टादशसर्गात्मकम् इदं काव्यं। किरात अर्जुन, किरातार्जुनौ अधिकृत्य कृतं काव्यं किरातार्जुनीयम्। तत्र किरातशब्देन शिवः उच्यते, किरातवेषधारिणः शिवस्य अर्जुनस्य च युद्धं प्राधान्येन कथावस्तु। महाभारतस्य वनपर्वणः इयं कथा स्वीकृता, पाण्डवाः वनवासे निरताः सन्ति तस्मिन् समये अर्जुनः अस्त्र दिव्यास्त्र सम्पादनार्थं तपश्चरति शिवः किरातवेषेण आगत्य तं परीक्षते ततः परं प्रसन्नः शिवः तस्मै पाशुपतास्त्रं ददाति इत्येषा कथा महाभारते अस्ति महाभारते एव अस्ति कथा तावता दैर्घ्येण न वर्णिता किन्तु भारविः तद्वस्तु स्वीकृत्य स्वप्रतिभया महाकाव्यमेकं निर्मितवान् संस्कृतकाव्येषु लघुत्रयी बृहत्त्रयी इत्युच्यते वस्तुतः आयुर्वेदग्रन्थेषु अपि अस्ति लघुत्रयी बृहत्त्रयी इति काव्येषु अपि उच्यते तत्र लाघवम् आकृतौ न इट् इस् नाट् इन् द सैज़् आर् द लेन्त् कालिदासस्य रघुवंशं कुमारसम्भवं तथा मेघदूतम् इति काव्यत्रयं लघुत्रयी इति उच्यते किरातार्जुनीयं शिशुपालवधं नैषधीयचरितम् इति काव्यत्रयं बृहत्त्रयी इत्युच्यते अत्र बृहत्त्रय्यां प्रथमं कालदृष्ट्या प्रथमं निर्मितं काव्यं किरातार्जुनीयम् अन्येषां काव्यानाम् आधारभूतं च किरातार्जुनीयेन नूतनः कश्चित् पन्थाः संस्कृतकाव्येषु निर्मितः पण्डितकाव्यानि इत्युच्यन्ते कालिदासस्य काव्यं सरलं सरसं च तत्र प्रसादगुणः माधुर्यगुणः च प्रधानः प्रसादः इत्युक्ते श्रुत्वा झटिति अर्थावगतिः भवति यदि संस्कृतज्ञानम् अस्ति भाषाज्ञानम् अस्ति तर्हि श्रुत्वा अथवा पठित्वा शीघ्रम् अर्थबोधः भवति झटिति एव रसम् उत्पादयत्यपि किन्तु एतानि पण्डितकाव्यानि न तथा तत्र भाषा प्रागल्भ्यस्य कवेः चातुर्यस्य च समानं स्थानं भवति सो चित्रकाव्यम् इति एकः सर्गः एव अस्ति किरातार्जुनीये अस्ति शिशुपालवधे अस्ति एकस्मिन् सर्गे सम्पूर्णतः different kinds of literary you know it's like an exhibition of their skill yatha kevalam varna dvayam alambhe ekah shlokah ekena varnena ekah shlokah chitrakavyeshu prabhedah santi itukte aditah pathamah ched ekah arthah bhavati antyad arabhya tameva shlokam pathamah ched anyah arthah bhavati ityadi evam bahuvidham स्वकौशलम् अपि प्रदर्शयन्ति कवयः तेन सह काव्यसौन्दर्यमपि भवति तादृशेषु भारवेः किरातार्जुनीयमेव प्रथमं काव्यं महाकविः भारविः प्रायः सामान्यशके षष्ठे शतके आसीत् भारवेरर्थगौरवम् इत्येव प्रसिद्धिः उपमाकालिदासस्य भारवेरर्थगौरवं दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः भारविः अर्थगौरवेण प्रसिद्धः अर्थस्य गौरवं भारविः यदा एकं श्लोकं कथयति तत्र बहवः अर्थाः भवन्ति अर्थस्य गाम्भीर्यं भवति इति कारणेन भारवेरर्थगौरवम् इति प्रशंसन्ति वस्तुतः कुत्रचित् दृष्टं सामान्यतः महाकाव्येभ्यः उत्तमाः श्लोकाः सुभाषितरूपेण अपि अस्माभिः उद्ध्रियन्ते बहुभिः कविभिः तत्र भारवेः एकमेव काव्यम् उपलब्धमस्ति भारवेः काव्यम् इत्युक्ते किरातार्जुनीयम् एव अन्यत् किमपि काव्यं नोपलभ्यते किन्तु किरातार्जुनीये यावन्तः श्लोकाः सन्ति तेषु प्रायः 20% श्लोकाः सुभाषितत्वेन उपयोक्तुं योग्याः तथा यथा सहसा विदधीतनक्रियाम् इति प्रसिद्धः श्लोकः अस्ति सहसा विदधीतनक्रियाम् अविवेकः परमापदां पदं వృణతేహి విమృశ్యకారిణం గుణలుబ్ధాః స్వయమేవ సంపదః. కావ్యే కేనచిత్ ప్రసంగే ఉచ్యతే కింతు కావ్యాత్ బహిః అపి తేషాం ఉపయోగః సుభాషిత రూపేణ ఉత్తమ వచన రూపేణ కర్తుం శక్యతే. సో ప్రాయః 200 శ్లోకాః భారవేః కావ్యాత్, ఏకమేవ కావ్యం కింతు తతః ఏతావంతః శ్లోకాః సుభాషితత్వేన ప్రయుక్తాః, అత ఏవ అర్థగౌరవం. సహ అర్థః కేవలం తస్మిన్ ప్రసంగే ఏవ న అన్యేషు బహుషు ప్రసంగేషు అపి సహ అర్థః అన్వేతి ఇత్యర్థః. శ్రీహి లక్ష్మీహి సహ శ్రీ ఇతి శబ్దేన ఆరభతే ప్రతిసర్గం అంతిమే శ్లోకే లక్ష్మీహి ఇతి అథవా తద్వాచకం శబ్దం ప్రయుంక్తే భారవిహి. సో హీ హాస్ దట్ స్టైలిస్టిక్ ట్రేట్. ఓకే, యథా మయా ఉక్తం పంచదశే సర్గే చిత్రకావ్యం. సో సర్గే పూర్ణత భిన్న భిన్న రీత్యా కావ్య కవి సామర్థ్యస్య ప్రదర్శనం క్రియతే భారవిణా. ఇదానీం కిరాతార్జునీయస్య కథాం పఠామః. కథాయాః సంగ్రహరూపేణ వచనం అత్ర అస్తి, పఠామః. ఏ పఠితుమిచ్చంతి హస్తం ఉన్నయంతు. పఠనకాలే సంధి విచ్ఛేదం కృత్వా పదానాం విచ్ఛేదం కృత్వా పఠంతు, యథా అర్థస్య అవగమనం శీఘ్రం భవతి తథ. సో సంధిం కృత్వా ఏవ అత్ర దత్తం భవతి, సంధి విచ్ఛేదం కృత్వా పఠనీయం.
నమస్తే మహోదయ. మహాభారతస్య కథా ప్రసిద్ధా. కౌరవ పాండవ యోర్ధ్యుత సమాప్త
కౌరవ పాండవ
పాండవ యోహ యుద్ధ ద్యుత ద్యూతం సమాప్తం. కౌరవా జయం ప్రాప్తవంతః, పాండవాః పరాజితాః. నియమ అనుసారేణ యుధిష్ఠర అనుజైః
యుధిష్ఠిరః
యుధిష్ఠరః అనుజైః సహ అరణ్యం గతవాన్. అరణ్యే యుధిష్ఠరః దుర్యోధనస్య రాజ్యభార క్రమం జ్ఞాతుం ఏకం కిరాతం హస్తినాపురం ప్రతి ప్రేషితవాన్. సహ కిరితో కిరితః
కిరాతః
బ్రహ్మ కిరాతః బ్రహ్మచరి బ్రహ్మచర్య వేషం
బ్రహ్మచారి వేషం
బ్రహ్మచారి వేషం ధృత్వా గతవాన్.
ఏతత్తు పూర్వపీఠికా, వస్తుతః కావ్యం ఇతః ఏవ ఆరభ్యతే, ఇతః పరం ఏవ ఆరభ్యతే. సో మహాభారతస్య కథ ప్రసిద్ధ, సర్వైః జ్ఞాయతే. కౌరవ పాండవయోః ద్యూతం సమాప్తం. ద్యూతం ద గేమ్ ఆఫ్ డైస్. సో ద్యూతం సమాప్తం. కౌరవాః జయం ప్రాప్తవంతః, పాండవాః పరాజితాః. సో కః నియమః ఆసీత్ ద్యూతే అంతే. ద్యూతం బహువారం ప్రచలతి. సో అంతిమః నియమః ఆసీత్ యః ద్యూతే పరాజితః సః ద్వాదశ వర్షాణి యావత్ వనమాసం ఏకస్య వర్షస్య అజ్ఞాతవాసం చ కుర్యాత్ ఇతి నియమః. సో నియమానుసారేణ, సో నియమం అనుసృత్య యుధిష్ఠిరః అనుజైః సహ భీమ అర్జున నకుల సహదేవైః సహ అరణ్యం గతవాన్. అరణ్యే యుధిష్ఠిరః దుర్యోధనస్య రాజ్యభారక్రమం జ్ఞాతుం. సో దుర్యోధనః కథం రాజ్యం ప్రశాస్తి ఇతి జ్ఞాతుం ఇచ్ఛా ఆసీత్ యుధిష్ఠిరస్య, అతః ఏకం కిరాతం హస్తినాపురం ప్రతి ప్రేషితవాన్. కిరాత శబ్దస్య వ్యాధః ఇత్యర్థః. సో అహంటర్ తస్య సయేవ కిరాతః. सो किरातं हस्तिनापुरं प्रति प्रेषितवान् सः किरातः ब्रह्मचारी वेषं धृत्वा गतवान् सो तत्र विषयान् ज्ञातुं ब्रह्मचारिणः वेषं धृत्वा सः गतवान् तस्य प्रत्यागमनेन कथा आरभ्यते काव्ये कुत्रापि प्रश्नाः सन्ति चेत् पृच्छन्तु किमपि पदं न अवगतं चेत् सरलमेव अस्ति
नमस्ते ततः सः वनं प्रति आगतवान् युधिष्ठिरं निवेदितवान् च दुर्योधनः राज्यसिंहासने स्थितः तथापि भवतां विषये सः भीतः सः नीतिपूर्वकं राज्यशासनं करोति सेवकान् मित्राणि इव पश्यति मित्राणि बन्धून् इव बन्धून् स्वामिभावेन च पश्यति किरातः प्रति आगतवान् सो युधिष्ठिरं कथितवान् राज्यभारकं कथम् अस्ति इति सो सः तस्य भवतः विषये भीतः सः राज्य
अनुभवति यतोहि कथञ्चित् द्वादशवर्षाणि समाप्यन्ते पुनः प्रत्यागच्छन्ति तावति राज्ये दार्ढ्यं कथं सम्पादनीयम् इति दुर्योधनस्य प्रयत्नः
सः नीतिमान् एव राज्यभार क्रमं करोति सैनिकान् सेवकान् मित्रानिव
कविः वर्णयति यथा सेवकान् सामान्यतः बहु निकृष्टान् पश्यन्ति किन्तु सः हि इस् गिविङ्ग् देम् मोर् रेस्पेक्ट् देन् दे यूजुवलि गेट् सो ये सेवकाः तेषां समीपे यथा मित्रैः सह व्यवहरति तथा व्यवहरति सो दीस् आर् आल् इन्क्रीसिङ्ग्लि क्लोज़र् रैट् सो सेवकाः मित्राणि बान्धवाः इति भवति हैरार्की तत्र सर्वानपि स्वस्थानात् अधिकं गौरवं दत्त्वा सः व्यवहरति इति अर्थः आम् सो ये सेवकाः तान् मित्राणि इव पश्यति मित्राणि बन्धूनिव सो अत्यन्तम् आप्तान् इव पश्यति बन्धून् स्वामिभावेन सो ये बन्धवः सन्ति ते तु तस्यापि तदपेक्षया अपि उत्तमाः स्वामिनः इव पश्यति सो बेसिकलि हि इस् गिविङ्ग् एव्रिबडी मोर् रेस्पेक्ट् एण्ड् देर् फोर् गेटिङ्ग् देर् हार्ट्स् सो एतत्तु सामान्यतः दुर्योधनस्य चित्रं यत् पश्यामः तस्माद् विरुद्धमस्ति भारवेः इदं वर्णनं सः बहु उत्तमः सः अन्याय्येन राज्यं प्राप्तवान् चेदपि राज्यस्य परिपालनं न्याय्यमार्गेणैव करोति बहु सम्यक् सर्वाः प्रजाः पालयति इति सः किरातः आगत्य कथयति किरातः युधिष्ठिरेण हस्तिनापुरं प्रति प्रेषितः दूतचाररूपेण कथं सन्ति सर्वे इति ज्ञातुं प्रेषितः सः प्रत्यागत्य वदति दुर्योधनः बहु सम्यक् राज्यभारं करोति इति किरातः युधिष्ठिरं प्रति वदति
सामन्ताः सर्वे तस्य आदेशं परिपालयन्ति राज्ये सर्वत्र कृषिरुत्कृष्टा अस्ति गुप्तचराः विश्वासयोग्याः सन्ति ते अन्यराजानां वृत्तान्तं तस्मै निवेदयन्ति. एवं स प्रबलो महाराजो भविष्यति. अतः तं जेतुं भवता उपाय कर्तव्यः इति
इति सः किरातः युधिष्ठिरं वदति. अनुवर्तयति किं सामन्ताः सर्वे सामन्ताः अधीनाः राजानः. सो किङ्ग्स् अण्डर् हिस् कण्ट्रोल्. सो एकः चक्रवर्ती भवति तस्य बहवः तस्य अधः तस्य नियन्त्रणे एव अन्ये राजानः भवन्ति लघु लघु जनपदान् पालयन्ति. सो ते सर्वे अपि तस्य आदेशं परिपालयन्ति. सो नो रिवोल्ट्स्. एव्रिबडी इस् फेथ्फुल् टु हिम्. राज्ये सर्वत्र कृषिः कृषिः फार्मिङ्ग् सो अग्रिकल्चर् उत्कृष्टा अस्ति बहु उत्तमा अस्ति. यदा राजा उत्तमः तदा सुभिक्षं भवति इत्येव नियमः. अतः सर्वत्र सस्यानि सम्यक् फलन्ति. गुप्तचराः विश्वासयोग्याः सन्ति. सो सः किं करोति बहून् चारान् उपयुङ्क्ते अन्यत्र किं किं भवति इति ज्ञातुं ते अन्यराजानां वृत्तान्तं तस्मै निवेदयन्ति. एवं सः प्रबलः महाराजः भविष्यति. एवमेव कानिचन वर्षाणि सः बहु सम्यक् राज्यं पालयति चेत् द्वादशवर्षाणाम् अन्ते अथवा त्रयोदशवर्षाणाम् अन्ते सः बहु जनप्रियः भविष्यति. हि विल् बि वेरि पाप्युलर्. अतः तं जेतुं भवता उपायः कर्तव्यः इति सः किरातः युधिष्ठिरं वदति. युद्धकाले बहु कष्टं भवति यतोहि तस्य बहूनि मित्राणि भवन्ति बहवः तत्पक्षे एव भवन्ति. एते तु वने सन्ति अतः एतेषाम् अनुचराः वा एतेषां पक्षिणः वा बहु न्यूनाः. अतः विशेषप्रयत्नः कश्चित् कर्तव्यः इति किरातः युधिष्ठिरं सूचयति. निर्मला
नमस्ते, श्रूयते वा? नमस्ते. युधिष्ठिरः गुप्तचराय पारितोषिकं दत्त्वा तं प्रेषितवान्. ततो भीमादीनां सम्मुखे किरातेन उक्तं विषयं द्रौपद्यै कथितवान्. युधिष्ठिरस्य वचनं श्रुत्वा द्रौपदी उक्तवती, हे नाथ, श्रीणाम् उपदेशवचनेषु पुरुषाः प्रायेण अनादरं प्रकटयन्ति. तथापि मम हृदयव्यथा वक्तुं मा प्रेरयति.
सो युधिष्ठिरः गुप्तचराय पारितोषिकम् अवार्ड् दत्त्वा तं प्रेषितवान्. सः विषयम् आगत्य उक्तवान् इत्यतः ततः पाण्डवानां परस्परं चर्चा प्रचलति. ततः भीमादीनां सम्मुखे
कन्फ्रंट्
इन् देयर् प्रेजेन्स् तेषां पुरतः किरातेन उक्तं विषयं द्रौपद्यै कथितवान्. सर्वेभ्यः वदति एवं किरातः किं किम् उक्तवान् इति. युधिष्ठिर सा तदा द्रौपदी वदति. सो अयं प्रश्नः अपि बहुधा पृच्छ्यते, द्रौपद्याः उपदेशः युधिष्ठिरं प्रति. सो मूलकाव्येपि बहु उत्तमः भागः, बहु उत्तमाः श्लोकाः सन्ति. अत्रापि परीक्षायां पृच्छन्ते हे नाथ स्त्रीणाम् उपदेशवचनेषु पुरुषाः प्रायेण अनादरं प्रकटयन्ति न शृण्वन्ति तत्र लक्ष्यं न यच्छन्ति किमपि जल्पन्ति इति मत्वा त्यजन्ति अतः मम वचनस्य मूल्यं न स्यात् तथापि मम हृदयव्यथा दुःखं वक्तुं मां प्रेरयति सो दुःखकारणेन अहं किञ्चित् वक्तुम् इच्छामि इति सा कथयति
त्वां पत्नी समान राज्यलक्ष्मीं परित्यक्तवान् अतो अयं भूमिः कथमस्ति पश्य पूर्वम्
अयं भीमः कथमस्ति
पश्य पूर्वं सः सुन्दरमञ्चे शयनं करोति स्म इदानीं दीनं भूतले शयनं करोति इदानीं भूतले
दीनः
भूतले शयनं करोति अयम् अर्जुनः पूर्वम् उत्तरदेशं जित्वा स्वर्णराशिम् आनीतवान् इदानीं सः एवं वल्कलं धरति वन्यजीवनं करोति नकुलः सहदेवो सुकुमारो कोमलदेहौ तौ कठिने भूतले शयनं कुरुतः
त्वं राज्यलक्ष्मीं परित्यक्तवान् सो राज्यलक्ष्मी सो यूजुअलि द वेल्त् आर् किङ्ग्डम् इस् पिक्चरैज्ड् एस् लक्ष्मी एस् द एम्बोडिमेण्ट् आफ् लक्ष्मी सो पत्नी समां सो पत्नी इव अत्यन्तं प्रियां राज्यलक्ष्मीं परित्यक्तवान् अतः अयं भीमः कथमस्ति पश्य सो तस्य किं किं फलम् इति दर्शयति सर्वेपि तव अनुजाः केवलं तव कष्टम् इति नास्ति सर्वे अनुजाः बहु कष्टम् अनुभवन्ति अतः अयं भीमः कथमस्ति पश्य पूर्वं यदा तेषां राज्यमासीत् तदा सः सुन्दरमञ्चे शयनं करोति स्म इदानीं दीनः दरिद्रः भूतले शयनं करोति अयम् अर्जुनः पूर्वम् उत्तरदेशं जित्वा राजसूययागसन्दर्भे अर्जुनः सर्वत्र गत्वा सर्वान् देशान् जित्वा सुवर्णराशिम् आनीतवान् सुवर्णस्य राशयः एव तैः प्राप्ताः इदानीं सः एव वल्कलं धरति वल्कलं ह्यः अपि सुभाषिते दृष्टम् वाससे वल्कलं च वल्कलं वृक्षस्य त्वक् बार्क् गार्मेण्ट्स् वन्यजीवनं करोति नकुलसहदेवौ सो नकुलः सहदेवः तौ द्वौ अपि सुकुमारौ वेरि डेलिकेट् और् साफ्ट् जेण्टल् कोमलदेहौ तौ कठिने भूतले शयनं कुरुतः सो सर्वेषामपि अवस्था अत्यन्तं कठिना अस्ति
नमस्ते एतेषां कष्टं दृष्ट्वा तव दुःखं न भवति किम् अहम् अतीव दुःखम् अनुभवामि महाराज त्वं शान्तिं त्यज शत्रूणां विनाशं कुरु शान्तिः मुनीनां स्वभावः सः स्वभावः नृपाणां न समयनिरीक्षा न उचिता। यः विजयम् इच्छति सः समयानुसारेण सन्धिं त्यजति, अतः युद्धाय प्रवृत्तिं कुरु इति। एवमुक्त्वा द्रौपदी तूष्णीम् अभवत्।
एतेषां कष्टं
दृष्ट्वा seeing the difficulties of all these brothers, seeing all these difficulties, how come you are not sorrowful? How come you are not afflicted? I myself am experiencing extreme discomfort or sorrow. Hey, King, you should drop this attitude of peace or the mood of peace. Shatrunam vinasham kuru. So you should right away go about destroying the enemies. Shanti munina svabhava. This attitude of peace is becoming only of sages. It is not the hallmark or characteristic of kings. Samaya niriksha na uchita. Niriksha, that is, don't look for an appropriate moment. Is that correct? I don't know.
Time, waiting for the time. That is, waiting for the vanavasa. अज्ञातवासयोः समाप्ति पर्यन्तं निरीक्ष। समयशब्दस्य अर्थद्वयम् अस्ति संस्कृते। एकं समयः कालः इत्यर्थः, द अदर् इस् अन् अग्रिमेण्ट् और् अ ट्रीटि, सो तस्यापि समयः इति अर्थः अस्ति। अत्र तु कालः इत्यस्य इत्येव अर्थः युज्यते।
So don't wait for the looking for the right moment. That was my rough translation. Yaha vijayam ichati, one who desires victory, saha samaya anusarena sandhim tyajati. He does not wait for the right moment, waiting for the right occasion. Ataha yuddhaya pravrittim kuru. So set about, to fight the battle. Evam uktva Draupadi tushnim avat. Having said that, she stayed quiet.
Draupadyah kathanam yadi dvadasha varsha trayodasha varshanam pratiksha kriyate tattu kritam asit. It was an agreement. Pandavah api angi kritte eva manam agataha. Kintu tadeva kurmahate tavati duryodhanah atyantam balavan bhavati. तस्य पराजयः न शक्यते अग्रे। He would have become too strong to overcome. अतः यः विजयम् इच्छति सः समयानुसारेण सन्धिं त्यजति। सन्धि इज अ ट्रीटी, राइट? सो व्हेन टू पार्टीज दे डिसाइड टू स्टॉप वॉर, दे कम टू एन अग्रीमेंट, किंतु समयानुसारेण, सो कालं दृष्ट्वा सन्धिं त्यजन्ति। अतः सः अधर्मेण अस्मान् जितवान्, वयमपि इदानीम् एतत् त्यक्त्वा इदानीमेव युद्धं कृत्वा अस्माकं राज्यं प्राप्नुमः इति द्रौपदी कथयति। अयमेव द्रौपद्याः उपदेशः, इदानीमेव युद्धं कृत्वा राज्यं प्राप्नोतु इति। अत्र केचन प्रश्नाः सन्ति। युधिष्ठिरः कं किमर्थं हस्तिनापुरं प्रति प्रेषितवान्?
युधिष्ठिरः
किरातं
हस्तिनापुरं प्रति प्रेषितवान्।
किमर्थम्? दुर्योधनस्य
राज्य अवलोकन
राज्यभारक्रमं ज्ञातुं
राज्यभारक्रमं
राज्यं पालयति इति ज्ञातुं हस्तिनापुरं प्रति प्रेषितवान् दुर्योधनः मित्राणि बन्धूनि च कथं पश्यति
दुर्योधनः दुर्योधनः सेवकान् मित्राणि पश्यति मित्राणि बन्धून् इव पश्यति
बन्धून्
बन्धून् स्वामी स्वामी इव
स्वामी पश्यति
पुरुषाः प्रायेण स्त्रीणाम् उपदेशम् अनादरं प्रकटयन्ति
स्त्रीणाम् उपदेशवचने अनादरं प्रकटयन्ति
शान्तिः तेषां स्वभावः तेषां स्वभावः न शान्तिः मुनिनां स्वभावः नृपाणां न स्वभावः
सम्यक् शान्तिः मुनीनां स्वभावः नृपाणां स्वभावः न
कः सन्धिं त्यजति यः विजयम् इच्छति सः समयानुसारेण सन्धिं त्यजति
सम्यक् यः विजयम् इच्छति सः समयानुसारेण सन्धिं त्यजति इति प्रथमभागे किरातः दुर्योधनस्य राज्यभारक्रमं वर्णयति द्रौपदी शान्तिं त्यक्त्वा युद्धं कर्तुं युधिष्ठिरम् उपदिशति द्वितीयभागे भीमयुधिष्ठिरयोः संवादः भवति अन्ये केऽपि पठितुमिच्छन्ति
गुड् मार्निङ्ग् द्रौपद्या वचनानन्तरं भीमसेनः वक्तुमारम्भं कृतवान् स तस्य वचनं श्रेष्ठमिति चिन्तितवान् भीमः कथयति अग्रज द्रौपद्या वचनं रमणीयं बृहस्पति रप्ये बृहस्पति अपि एवं वक्तुं न शक्ता तस्य वचनम् अर्थगर्भितम् अर्थगर्भितम् अतस्तस्याः वचनं स्वीकुरु तव विद्यासु परिणता कथं कौरवाणां विषये तन्न सा नष्टा सो इन्स्टेड् आफ् वेस्टिङ्ग् टैम् ट्रैङ्ग् टु डु इट् इन् सान्स्क्रिट् ऐ डु इट् इन् इङ्ग्लिश् ओके Okay. After Draupadi spoke, Bhimasena started to speak or spoke. He thought that Draupadi's whatever was spoken by Draupadi was really a very good वाक्यम्
आर् ग्रेट्
भीमा आल्सो सेस् ओ ब्रदर् दि वाट् एवर् हेस् बीन् स्पोकन् बै द्रौपदी इस् रियलि गुड् रमणीयम् इस् ऐ डोण्ट् वाट् इङ्ग्लिश् रमणीय गुड् आर् अप्रोप्रियेट् ईवन् बृहस्पति केनाट् feet like this. Draupadi's speech is full of
very meaningful. Arthagarbhitam.
Garbhitam. Garbhitam. How do you say garbhitam? Garbhitam. It is full of inner meanings, right?
Mm.
Okay.
Very.
अतः तस्याः वचनं स्वीकृ सो प्लीज टेक दि वर्ड्स ऑफ द्रौपदी तव बुद्धिः विद्यासु परिणता युवर इंटेलिजेंस एंड योर एजुकेशन इज कैन आई से लिमिटेड
परिणता इज वेरी एक्सपीरियंस्ड
Parinata is okay. Your intelligence and your education is well rounded. Having said that, how can you not think clearly about the Kauravas?
Sa buddhihi nashta. How has that intelligence? How is it lost in case of Kauravas? Why are you not using your intelligence?
Okay. I think that's the meaning as far as I could see in the English language.
So Brihaspatihi Devanam Guruhu. Tatra Paryaya Padani Brihaspatehe Guruhu Dhishanaha Vakpatihi. So he has many names. He is supposed to be the Brihatam Patihi Brihaspatihi. Brihat is Vak. So Vachaspatihi, he is the master of speech. Atayeva Brihaspatihi api evam vaktum nashaktaha. So evam bahu samyak uktavati iti kathayati.
Can you hear me?
Yeah.
Deva api purvam asmakam. पौरुषम् अभिनन्दन्ति स्म इदानीं ते उपहास्यं कुर्वन्ति अपहास्यं कुर्वन्ति पौरुषं प्रधानं न दैन्यं त्वं द्वादशवर्षाणाम् अवधिनिरीक्षणं करोषि तत् सम्पादः अनुभूय कः वा प्राप्त प्रत्यर्पयति कः वा प्रति अर्पयति अथवा यदि स्वीकुर्मः तत् अपमानम् अपमानमस्माकम् अतः शान्तिमार्गं परित्यज्य वीरमार्गम् आश्रय युद्धं कुर्मः शत्रूणां नाशो भवतु इति देवाः आल्सो पूर्वं दे हेव् एण्डोर्ड् अस् वित् lot of virium and valor. This is the time. They are making fun of us. They apahasyam purvanti. Idanim, at this time, they are making fun of us. At this time, paurusham, the valor is pradhanam, important. Na dhenyam, no point in being passionate or being merciful. From dvadasa varshana, Abadhi nirikshanam karoshi. You have spent already 12 years patiently waiting for that.
Waiting for that 12 years. Avadhi.
Tad vyartam. That is wasted. Sampadaha anubhoya kahava pratyarpayati. In order to make the earning, who will wait this long?
No. Sampadaha anubhoya. Having experienced wealth, who will return it? Nasim vadati, Yudhishthira vadati, dvadasha, trayodasha varshanam anantaram, duryodhanaha pratidadati iti niriksha. Eto hi tadeva kesham sandhihi. Dvadasha varshanam anamasam, ekasya varshasya agnyatavasam samapayanti chet, duryodhanaha rajyam pratyarpayati iti sandhihi, kintu saha na pratyarpayishyati iti bhimaha kathayati. एतावन्तं कालं सम्यक् राज्यं राज्यभारं कृत्वा कः प्रत्यर्पयति? Who will give it back? So he will not give it back.
अथवा यदि स्वीकुर्मः, either you accept that, otherwise अपमानम् अस्माकं. You have to.
Even if he gives it back, it is a humiliation for us to accept what he is giving us with great magnanimity, without winning it out of our own valor.
अतः शांति मार्गं परित्यज्य वीर मार्गं आश्रय. So give up your peaceful means and then follow the yuddha margam, that is aggressive, be aggressive and follow the aggressive path. Yuddham kurmaha, wage war, shatrunam nashaha bhavatu, let there be destruction of the enemies.
So paurusham abhinandanti, paurusham nama viryam parakramah ityarthah abhinandanti prashamsanti. So purvam asmakam viryam devah api prashamsanti sma idanim apahasyam kurvanti. Idanim tu te asman drishtva parihasanti etadrishah virah evam vanchitah vane vasanti iti te parihasanti iti vadati. Atra kashchit prashnah, at what point of time is this happening? Is this before 12 years? Aam, te vanamasam agatya dvitrani varshani atitani tavadeva. They are not too much into the vanamasa. Kati varshani iti vishishya na vadati, kintu vanamasasya madhye eva ayam prasangaha. Vanam agatya kanichana varshani atitani itopi bahuni varshani santi. अतएव त्वं द्वादश वर्षाणां अवधि निरीक्षणं करोषि. यु आर् वेटिङ्ग् फार् दट् पीरियड् टु बि ओवर् बट् दट् इस् दट् वुड् बि अ वेस्ट्. इदानीमेव वनवासं न कुर्मः, इदानीमेव गत्वा युद्धं कृत्वा अस्माकं राज्यं प्राप्नुमः इति द्रौपदी भीमसेनश्च कथयतः. अन्ये केऽपि प्रश्नाः अस्मिन् भागे? एतत् सर्वं भीमेन युधिष्ठिरं प्रति कथितम्. भीमयुधिष्ठिरयोः संवादः. भीमः द्रौपद्याः वचनस्य अनुमोदनं कृत्वा सः अपि समानं वदति. सो हि इस् एण्डोर्सिङ्ग् द वर्ड्स् आफ् द्रौपदी. अग्रे अन्यः कोऽपि पठितुमिच्छति?
भीमस्य वचनं श्रुत्वा युधिष्ठिरः उपदेशम् आरब्धवान्. तव वचनम् अर्थपूर्णम्, तथापि अहं किञ्चित् चिन्तयामि. सर्वं कार्यं त्वरया न कर्तव्यम्, विमर्शः आवश्यकः. इन्द्रियाणां निग्रहः अवश्यं कर्तव्यः. शान्तिः प्रधानं साधनम्. दुष्टः तत्काले सुखम् अनुभवन्ति, अन्ते विनश्यन्ति इति. संस्कृते अर्थम् ऐ वोण्ट् बि से.
Yeah.
After listening to what Bhima said, Yudhishthira starts to give his response. He says what Draupadi said is very right. Tava vachanam arthapurnam. But still, I'm thinking about it. Aham kinchit chindayami. I'm still thinking about it. Sarvam karyam all the work Swaraya na kartavyam. Cannot do it impulsively. Is that right? Swaraya.
Swara is haste.
Okay. Yeah. Can't do all the work with haste. Vimarshaha avashyakaha, which means we have to think about it, and that thinking is very important. Indriyanam nigrahaha avashyam kartavyaha. Indriyanam, all the senses. Nigrahaha, maybe to control, is very important. Our senses might induce us to take action immediately, but we should not do it. We should think about it. Shantihi pradhanam sadhanam. Being calm is very, very important. Dushtaha tatkale sukham anubhavanti. Those people or the bad people or here the Kauravas, they are right now experiencing pleasure. Ante vinashyanti, at the end they will be destroyed. This is what Yudhishthira gives as response to Bhima and Draupadi.
Correct. Samyak. Uttama. So, Swaraya tadeva maya subhashitam udhritam. Sahasa vidadhita nakriyam. Avivekaha paramapadam padam. So, sahasa swaraya. So, jhatiti. Vayam etat chintayamaha jhatiti na karaniyam. Avivekaha paramapadam padam. Vrinatehi vimrushya karinam. Vimrushya samyak vichintya yaha karyam karoti. Tasya sampadaha swayameva tam praapnuvanti. Ityartha. Ataha Yudhishthiraha siyam samarthayati. Shantihi pradhanam sadhanam. Dushtaha tatkale. So idanim. So temporarily they experience sukha. Ante tu vinashyanti. Iti kathayati. So tavati idanim asminneva bhage. Agre Arjunasya Indrakila Prayanam. So Yada Samvadaha Prachalati Tavati Tatra Vyasaha Agacchati.
Tasmin Eva Samaye Ashramam Vyasa Munihi Agatavan Yudhishthiraha Ativa Santushtaha Puja Satkaram Kritavan Anantaram Dharmarajaha Vaktum Arabhavan Yudhishthiraha Tava Agamanena Asmakam Janma Saphalam Swam Nishkrihaha Asmakam Samipe Kim Va Prichasi Ataha Tava Agamana Prayojanam Na Krishnavan Aham Tathapi Tava Vachanam Shrotum Ichami Iti Tat Samaye Vyasa Munihi Atra Agatavan Yudhishthiraha Santushtaha Santosham Anubhutavan Tasya Svikaranam Kritvan Adarena Svikaranam
Agatam Kritavan Atithyam Kritavan
Anantaram Aha Uttavan Aham Kimartam Agatavan Iti Na Krishtami Parantu Patra Kimati Karanam Bhavet Eva Shrotum Ichami Iti
So, samanyataha yada kshatriyanam samipe munayaha anyevagacchanti tada kim aham kim karomi bhavataha kim karomi iti prichanti यदा विश्वामित्रः दशरथस्य आस्थानम् आगतवान् तदा सः अपि अहं यत्किमपि कर्तुं शक्नोमि इति आरम्भे एव वचनं ददाति. सः सामान्यतः स एव क्रमः. किन्तु युधिष्ठिरः वदति त्वं निःस्पृहः, इत्युक्ते तव इच्छा इति किमपि न भवति, अस्माकं पक्षतः भवतः किमपि प्रयोजनं सिद्धं भवेदिति तु नास्त्येव. अतः अहं तथा न पृच्छामि. भवान् यत्किमपि उपदिशति चेत् तत् श्रोतुम् इच्छामि, भवतः उपदेशं श्रोतुम् इच्छामि इति कथयति. निःस्पृहः, स्पृहा नाम आशा. सो निर्गतः स्पृहायाः, यस्य आशाः न सन्ति. ह्यः सुभाषितं दृष्टं किल, तस्याः पारगताः विशुद्धमनसः नन्दन्ति योगीश्वराः. व्यासः अपि तथैव, तस्य कापि आशा नासीत्, किमपि साधनीयं नासीत्, अतः युधिष्ठिरः एवं कथयति. व्यासस्य सत्कारं कृत्वा स्वागतवचनानि कथयति.
नमस्ते मान्ये. युधिष्ठिरस्य वचनं श्रुत्वा व्यासमहर्षिः उक्तवान्, राजश्रेष्ठ, त्वं सर्वेषु समानं प्रतिम समानं प्रीतिं निक्षिप्तवान्. तव स्वभावः अभिनन्दनीयः. मुनिष्वपि तवायं स्वभावः, तव अयं स्वभावः स्तुतियोग्यः. तव गुणैः अहं सन्तुष्टः. वयं मोक्षं प्राप्तुं प्रयत्नं कुर्मः. कस्मिन् अपि विशेष प्रीतिः अस्माकं नास्ति. युधिष्ठिरस्य वच हेविङ्ग् हर्ड् दि स्पीच् बै युधिष्ठिर व्यासमुनिः हि सेड् हे राजश्रेष्ठ, त्वं सर्वेषु समानं प्रीतिं निक्षिप्तवान्. Tvam, you among all, what is the meaning of Preetim Nirshiptavan? I couldn't get it.
Equal affection to everybody.
Oh, so, okay.
Anujaha va bhavatu, kauravaha va bhavatu, yudhishthiraha sarvada, anujaha itkeva pashyati sarvanapi. Amanam Preetim, equal affection towards everybody.
Okay. Tava subhavaha abhinandaniyaha. Your nature is very pleasing. Munishvapi tava ayam svabhavah. So your nature is like a muni. Is that what it is?
So even munis, they try to attain it. So te api प्रशंसन्ति. यतोहि वस्तुतः मुनेः एव लक्षणं. कृष्णः कथयति किं तत्, विद्याविनयसम्पन्ने ब्राह्मणे गविहस्तिनि शुनि चैव श्वपाके च पण्डिताः समदर्शिनः सर्वेषां विषये समत्वम् इत्येतत् वस्तुतः मुनेः लक्षणम्. अतः सो युवर् नेचर् इस् अप्रिशियबल् इवन् अमङ्ग् ग्रेट् सेजस्. सो सच् नेचर् यु आल्रेडि हेव्.
स्तुतियोग्यः, it's worth praising it. Tava gunaihi aham santushtah, by your guna, by your nature, I am pleased. Vayam moksham praptum prayatanam kurmah, in order to attain moksham we should try.
We are trying. As in, he talks about sages. So vayam rishayah mokshartham eva prayatanam kurmah.
कस्मिन् अपि विशेष प्रीतिहि अस्माकं न अस्ति कस्मिन् अपि विशेष प्रीतिहि अस्माकं न अस्ति वी डोंट हैव एनी स्पेशल डिजायर फॉर एनीथिंग इज दैट
विशेष प्रीतिहि पार्शियलिटी अफेक्शन स्पेशल अफेक्शन टुवर्ड्स एनीबॉडी ही इज डिपेंडिंग व्हाई ही हैज कम टू सी द पांडवास पांडवाः कौरवाः उभौ अपि समानौ तस्य तर्हि पाण्डवानां साहाय्यं कर्तुं किमर्थम् अहम् इच्छामि इति सः कथयति वस्तुतः मुनिः मोक्षपरायणः विशेषप्रीतिः इति न भवति तथापि इति अग्रे कथयति तव सद्गुणानां कारणेन अहं भवतां साहाय्यं कर्तुम् इच्छामि इति अग्रे कथयति
धन्यवादः थैंक यू
तो तव स्वभावः अभिनन्दनीयः प्रशंसनीयः सो मुनीनां सदृशः स्वभावः कापि तदेव कथयति किल शान्तिः मुनीनां स्वभावः स एव युधिष्ठिरस्य स्वभावः किन्तु सः अभिनन्दनीयः बहु उत्तमः इति व्यासमहर्षिः कथयति तव गुणैः अहं सन्तुष्टः अग्रे अन्ये केऽपि पठितुमिच्छन्ति
Sorry, I was having a connection problem, but now I'm back. Tathapi sadhu janeshu vishesha preetihi bhavati eva ataha upadesha vachanani kathayami duryodhanaha shastra astra sangraham krutavan bhavat भवत्सु अपि शूरः अर्जुनः शास्त्रसङ्ग्रहं करोतु शस्त्रसङ्ग्रहं करोतु सः पशुपतिम् उद्दिश्य तपः कृत्वा पाशुपतास्त्रं शृणन्ति सम्पादयतु I missed the intervening context, but anyway, I will try to translate.
Vyasaha kathayati.
Yeah.
Vayam rishayaha asmakam kasminnapi vishaye vishesha preetihi na bhavati. We are not partial to anybody. Tathapi iti arabhyate.
Tathapi sadhu janeshi vishesha preetihi bhavati eva. Okay. Ataha upadesha vachanani kathayani. So, please instruct me
saying I will give you some advice even though I am not partial to anybody tathapi sadhu janeshu ye sajjanaah
okay
kachit preetihi bhavatyeva sadgunanam karanena tava vishaye mama preetihi asti atah upadesha vachanani kathayami
I will instruct you उपदेशवचनानि कथयामि ऐ डु दुर्योधनः शस्त्र अस्त्रसङ्ग्रहं कृतवान् दुर्योधनः इस् वेल् एक्विप्ड् वित् नालेज् आफ् यूस् आफ् दि शस्त्र अण्ड् अस्त्र
एक्स्पेक्टिङ्ग् द बेटल् ही इस् आल्रेडि कलेक्टिङ्ग् वेरियस् शस्त्र अण्ड् अस्त्र
Oh, does not mean that he's already well equipped, I guess. Okay. So he's doing that. Kathavan. Okay. This is, okay.
He has collected, I mean, it is, as the, this is going, he is doing that.
Okay. Bhavatsu api shuraha Arjunaha. Arjuna is also a valorous person and he is equally, he can also collect the various shastras.
Even among yourself,
Yeah.
So Arjuna, who is a valorous, let him collect some weapons, keeping the war in mind.
Okay. Karotu. Okay, that's load.
Load. Let him do. Let him collect weapons.
Let me collect. Saha Pashupatim Uddishya Tapaha Kutva. So let him do the tapas or austerity or prayer to towards the that's Shiva, and having done that, let him acquire Pashupata Astra.
Pashupatam Astram. So Pashupateha Astram. So it is the special weapon of Shiva, so let him collect it. So Shastra Astrayohu Bhedahasti. Shastram is a physical weapon, right? So which you use only with your physical might. Yatha Gada Bhavatu Athava Khadgaha Ityadi. Astrani Divya Ayudhani. So those which are imbibed with divine mantras. So Devata Shaktya Sahitaha Yani Prayujyante Sahitani Tani Astrani Iti Katyante. Ata eva Shastra Astra Pashupatam Astram. So Pashupatastrasya Praptyartham Shivam Uddishya Arjunaha Tapaha Karotu Iti. Iyameva Kirata Arjuniyasya Bijam Idameva Bhavati.
Aham Ekam Mantram Upadishami. तेन मंत्रेण तपः आचरितुं शक्यते प्रथमं तपसा इन्द्रः आराधनीयः इन्द्रस्याः अनुग्रहेण पराक्रमः भवति अहम् एकं यक्षं प्रेषयामि सः अर्जुनं तपोवनं नयति एवम् उक्त्वा व्यासः
अदृश्यः जातः.
So he says, I will deliver upadishami. I will give you one mantram. Tena mantrena, you with that mantram, tapah acharitum. You have to follow penance. It is possible to follow penance. Pratamam tapasa tritiya vibhakti. Indraha aradhaniya, you should evoke Indra. Indrasya, with Indra's anugraha, you will get parakramam. Aham ekam yaksham, I will send one yaksha, and he will take Arjuna to the tapovanam, the place where you do penance. And saying this, eva muktva, after saying this, Vyasa becomes invisible. Adrishya.
Vyasaha Adrishya. So Prathamam Tapasa Indraha Aradhaneyaha. Indrasya Puja Indram Uddishya Tapaha Kritva Anantaram Tasya Anugrahena Parakramam Prapya Shivam Uddishya Tapaha Kuru Iti Uktva Vyasaha Tataha Adrishyaha Bhavati. अन्ये केपि पठितुम् इच्छन्ति
यक्ष आगतः अर्जुनः गमनार्थं सिद्धः तदा द्रौपदी कथयति फलपर्यन्तं तपस्यम् आचर शत्रुणां जयार्थं सामर्थ्यं सम्पादनीयम् व्यासवचनम् अनुसर अस्माकं मनोरथः सफलो भवति यक्ष आगतः सो यक्षार्थे अर्जुनः दुर्योधनादीन् शत्रून् श्रुतवान् सः कवचं धृतवान् यक्षेन सह गतवान् आकाशे पुष्पवृष्टिः अभवत् यक्ष आगतः सो यक्षार्थे अर्जुनः गमनार्थं सिद्धः ही इज ऑल कॉन्सेंट्रेटिंग ऑन गोइंग विद यक्ष तदा द्रौपदी कथयति एट दैट टाइम द्रौपदी सेड फलपर्यंतं तपस्य आचर इन ऑर्डर टू गेन द फ्रूट ऑफ द all this success.
Till you attain the phala paryantam.
Till you attain the
labhyate tavat kalam.
Tapasya mantra. Continue. Continue doing penance until you get your desired result. Shatrunam jayartam samartyam sampadaniya. In order to defeat the enemies, get the necessary missiles. Vyasa vachanam anusara. Follow strictly the words of Vyasa. Asmaka manorataha sapalo bhavati. Let our mind-to-mind desires fulfill. Arjunaha Duryodhanadin Shatrun Smritavan. Arjuna was thinking about the enemies Duryodhana and his brothers. Saha Kavacham Dhritavan, he wore the Kavachas,
armors.
Ekshena Saha Gatavan, he went along with the action. Akashe Pushpa Vrishti, he above. In from the sky, there was a shower of flowers. This indicates
गमनार्थं सिद्धः सम्यक् धन्यवादः सो गमनार्थं सिद्धः गन्तुं सज्जः ही वाज रेडी टू गो सो ही प्रिपेयर्ड हिमसेल्फ टू लीव सो गन्तुं उद्युक्तः सो फलपर्यन्तं तपस्याम् आचर यावत् फलं लभ्यते तावत् पर्यन्तं न त्यज तपः अनुवर्तस्व अनुवर्तय इति कथयति अस्य भागस्य प्रश्नाः
के पूर्वं पाण्डवानां पौरुषम् अभिनन्दनं स्म Sorry, madam. Sorry.
Chinta na.
Tada.
Bhimaha vadati. Kim vadati.
Bhimaha vadati. Idanim paurusham pradanam.
Devaha api asmakam paurusham abhinandantisma. So, devaha prashamsantisma asmakam vidyam. Ataha devaha purvam pandavanam paurusham abhinandanam.
Abhinandanam sma.
दुष्टा कदा सुखम अनुभवन्ति कदाच विनश्यन्ति दुष्टा तत्कालं सुखम अनुभवन्ति
अनुभवन्ति
तदनन्तरं विनश्यन्ति
अन्ते विनश्यन्ति
अन्ते विनश्यन्ति
ज्योति
श्रूयते
वा
कस्य आगमनेन केषां जन्म सफलम्
पाण्डवानाम् अस्माकं पाण्डवानां जन्म सफलम् व्यासस्य आगमनेन पाण्डवानां जन्म सफलम्
कुत्र केषां विशेष प्रीतिः भवति
ऐ थिंक ऐ मिस् दिस् मेन् कस्मिन्नपि विशेष प्रीति स्माकं नास्ति इस् इट् फ्रम् दट् सेक्शन् ऐ नीड् टु पिक् अप्
साधुजनेषु
विशेष प्रीतिः भवति
मुनीनां तेषां मुनीनां साधुजनेषु विशेषप्रीतिः भवति
सारी मेम्
इन्द्रः केन आराधनीयः तत् किं भवति अर्जुनेन इन्द्रः प्रथम आराधनीयः आराधनेन पराक्रमं सम्पाद्यति
सम्पादयति अस्तु खण्डद्वयम् अधीतवन्तः किरातार्जुनीये इतोपि खण्डत्रयं भवति अग्रिमवर्गेषु पठामः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो